इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य प्रातः 11 वादने आकाशवाणीतः मन की बात इति कार्यक्रमे स्वीयं मनोगतं प्रकटयिष्यति। मासिकस्य आकाशवाणी कार्यक्रमस्य एतत् 28th संस्करणं भविष्यति। आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः अस्य कार्यक्रमस्य प्रसारणं भविष्यति। अयं हि कार्यक्रमः आकाशवाणी वार्ता विभागस्य अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अपि च न्यूज ऑन एआईआर इति चलदूरभाषीये तन्त्रांशे अपि उपलब्धो भविष्यति। आकाशवाणी दूरदर्शन वार्ता प्रधानमन्त्री कार्यालय सूचना प्रसारण कार्यालयानां यूट्यूब वाहिनीभिः अपि अस्य कार्यक्रमस्य साक्षात् प्रसारणं भविष्यति। हिन्दी भाषायां प्रसारणस्य पश्चात् अस्य प्रसारणम् आकाशवाण्याः क्षेत्रीयासु भाषासु अपि भविष्यति। प्रशासनेन सोमवासरादारभ्यमाणस्य संसदः शीतकालीन सत्रात् प्राक् अद्य सर्वदलीयोपवेशनम् आहूतमस्ति। उपवेशनेऽस्मिन् संसदीय कार्याणां मन्त्री किरेन रिजिजुः संसदः उभयोः सदनयोः राजनैतिक दलानां नेतृभिश्च सह मेलनं करिष्यति। उपवेशनेऽस्मिन् प्रशासनं सत्रावधौ लोकसभायाः राज्यसभायाः च सुचारुरूपेण सञ्चालनं सुनिश्चेतुं सर्वेषां राजनैतिक दलानां सहयोगं याचयिष्यति। एतत् सत्रं दिसम्बर मासस्य प्रथमदिनाङ्कादारभ्य दिसम्बर मासस्य 29 यावत् प्रचलिष्यति। सत्रावधौ बहवः महत्वपूर्णेषु विधेयकेषु चर्चां समेत्य तेषां पारितं भवितुं सम्भावनापि विद्यते। दिल्ली नगर निगमस्य MCD इत्यस्य 12 विभागानां कृते उपनिर्वाचनम् अद्य भवति। मतदानं प्रातः 7:30 सायं 5:30 भविष्यति। अग्रिमे मासे तृतीय दिनांके मतानां गणना भविष्यति। बंगखात्याः नैरेत्यां दिशि तथा समीपस्थेषु उत्तर श्रीलंका तमिलनाडु तटप्रदेशेषु च विद्यमानः दितवाह चक्रवातः गत 6 होरासु 5 किलोमीटर प्रतिहोरायाः वेगेन उत्तर दिशि गच्छन् तस्मिन्नेव प्रदेशे करैकल नगरात् पूर्वदिशि प्रायः 80 किलोमीटर दूरे वेदार नियम नगरात् पूर्व ऐशन्यां दिशि 100 किलोमीटर दूरे पुदुचेरी नगरात् दक्षिण दक्षिण पूर्व दिशि 60.1 किलोमीटर दूरे चेन्नई नगरात् दक्षिण दिशि 2.5 किलोमीटर दूरे च केन्द्रितः आसीत्। अग्रिमेषु 24 होरासु उत्तर तमिलनाडु पुदुचेरी तटस्य समानान्तरं प्रायः उत्तर दिशि गन्तुं शक्यते। उत्तर दिशि गच्छन् अद्य प्रातः सायंकाले च तमिलनाडु पुदुचेरी समुद्रतटात् प्रायः 50-25 किलोमीटर परिमिते आभ्यन्तरे नैरृत्य बंगालखात्याः उपरि चक्रवातः केन्द्रितः भविष्यति। क्षेत्रीय ऋतुविभागस्यानुसारं नागपट्टिनार नगरस्य कुडलूरनगरे रेड अलर्ट इति रक्तवर्णीया संचेतना प्रदत्तास्ति। चेन्नई कांचीपुरम इत्यादिषु 12 तटीय मण्डलेषु मध्यम वृष्टेः राज्यस्य अन्येषु मण्डलेषु लघुतः मध्यम वृष्टेः च पूर्वानुमानं प्रकटितमस्ति। अत्रान्तरे अद्य अधिकांशेषु स्थानेषु लघु मध्यम वर्षा भविष्यन्ति। कतिपयेषु स्थानेषु प्रचण्डतः अतिवृष्टेः सम्भावनापि विद्यते। तटीय आन्ध्रप्रदेशस्य यनम रायलसीमयोः च पृथक् पृथक् स्थानेषु अतिवृष्टिः भविष्यति। गृहमन्त्रालयः अवदत् यत् अधिकारिणः तटरक्षकदलेन राज्यस्य तथा केन्द्रशासितप्रदेशस्य अधिकारिभिः च सह निरन्तरं सम्पर्के सन्ति। आपत्काले कार्यार्थं 14 आपत्प्रतिक्रियादलानि स्थापितानि सन्ति। पुणे वडोदरानगरयोः 10 अतिरिक्तानि NDRF दलानि चेन्नईनगरं प्रति वायुमार्गेण प्रेषितानि सन्ति। थाईलैण्डदेशस्य विदेशमन्त्री सिहासक फुआंग केटकेओ इत्येषः भारतस्य 4-दिवसीय यात्रायां दिल्लीनगरं सम्प्राप्तवान्। विदेशमन्त्रालयस्य प्रवक्ता रणधीर जायसवालः गतरात्रौ तस्य आगमने स्वागतानन्तरम् उक्तवान् यत् एषा यात्रा सामरिक सहभागित्वस्य चिरस्थायि सभ्यता सम्बन्धस्य च सुदृढीकरणस्य अवसरः अस्ति। इति वार्ताः।